अथ चतुर्थः पादः प्राग्वह तेष्ठक् तेन दीव्यति खनति जयति जितम् संस्कृतम् कुलत्थकोपधादन् तरति गोपुच्छाट्ठै नौद्व्यचष्ठन् चरति आकर्षात्ष्ठल् पर्पादिभ्यष्ठन् श्वगणाट्ठै च वेतनादिभ्यो जीवति वस्त्नक्रयविक्रयाट्ठन् आयुधाच्छ च हरत्युत्सङ्गादिभ्यः भस्त्रादिभ्यष्ठन् विभाषाविवधात् अङ्कुटिलिकायाः निर्वृत्तेक्षद्यूतादिभ्यः क्त्रेर्मम् नित्यम् अपमित्ययाचिताभ्याम् कक्कनौ संसृष्टे चूर्णादिनिः लवणाल्लुक् मुद्गादण् व्यञ्जनैरुपसिक्ते ओजः सहोम्भसा वर्तते तत्प्रत्यनुपूर्वमीपलोमकूलम् परिमुखम् च प्रयच्छति गर्ह्यम् कुसीददशैकादशात्ष्ठन्ष्ठचौ उञ्छति रक्षति शब्ददर्दुरम् करोति पक्षिमत्स्यमृगान् हन्ति परिपन्थम् च तिष्ठति माथोत्तरपदपदव्यनुपदम् धावति आक्रन्दाट्ठै च पदोत्तरपदम् गृह्णाति प्रतिकण्ठार्थललामम् च धर्मम् चरति प्रतिपथमेतिठंश्च समवायान् समवैति परिषदोऽण्यः सेनाया वा संज्ञायाम् ललाटकुक्कुट्यौ पश्यति तस्य धर्म्यम् अण्महिष्यादिभ्यः ऋतोञ् अवक्रयः तदस्य पण्यम् लवणाट्ठै किसरादिभ्यष्ठन् शलालुनोऽन्यतरस्याम् शिल्पम् मड्डुकझर्झरादणन्यतरस्याम् प्रहरणम् परश्वधाट्ठै च शक्तियष्ट्योरीकक् अस्ति नास्तिदिष्टम् मतिः शीलम् छत्रादिभ्यो नः कर्माध्ययने वृत्तम् बह्वच् पूर्वपदाट्ठै हितम् भक्षाः तदस्मै दीयते नियुक्तम् श्राणामांसौदनाट्टिठन् भक्तादणन्यतरस्याम् तत्र नियुक्तः अगारान्ताट्ठन् अध्यायिन्यदेशकालात् कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति निकटे वसति आवसथात्ष्ठल् प्राघ्रिताद्यत् तद्वहति रथयुगप्रासङ्गम् धुरो यड्ढकौ खः सर्वधुरात् एकधुराल्लुक् च शकटादण् हलसीराट्ठक् संज्ञायाम् जन्याः विध्यत्यधनुषा धनगणम् लब्धा अन्नाण्णः वशम् गतः पदमस्मिन् दृश्यम् मूलमस्याबर्हि संज्ञायाम् धेनुष्या गृहपतिना संयुक्तेऽन्यः नौवयो धर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु धर्मपत्यर्थन्यायादनपेते छन्दसो निर्मिते उरसोऽञ्च हृदयस्य प्रियः बन्धने चर्षौ मतजनहलात्करणजल्पकर्षेषु तत्र साधुः प्रतिजनादिभ्यः खञ् भक्तान्नः परिषदोऽण्यः कथादिभ्यष्ठक् गुडादिभ्यष्ठञ् पत्यथितिवसति स्वपतेऽर्ढञ् सभायायः धश्छन्दसि समानतीर्थे वासी समानोदरे शैत ओचोदात्तः सोदराद्यः भवेच्छन्दसि पाथो नदीभ्याम् ड्यन् वेशन्त हिमवद्भ्यामण् स्रोतसो विभाषाड्यड्यौ सगर्भसयूथसनुताद्यन् तुग्राद्घन् अग्राद्यत् घच्छौ च समुद्राभ्राद्घः बर्हिषि दत्तम् दूतस्य भागकर्मणि रक्षो यातूनाम् हननी रेवती जगती हविष्याभ्यः प्रशस्ये असुरस्य स्वम् मायायामण् तद्वानासामुपधानो मन्त्र इतीष्टकासुलुक्चमतोः अश्विमानन् वयस्यासु मूर्ध्नो मतुप् मत्वर्थे मासतन्वोः मधोर्ण्य च ओजसोऽहनि यत्खौ वेशो यश आदेर्भगाद्यल् खच पूर्वैः कृतमिनयौ च अद्भिः संस्कृतम् सहस्रेण सम्मितौ घः मतौ च सोममर्हति यः मये च मधोः वसोऽस्समूहे च नक्षत्राद्घः सर्वदेवात्तातिल् शिवशमरिष्टस्य करे भावे च इति चतुर्थः पादः इति चतुर्थोऽध्यायः।